अथ अष्टम स्कंध
अथ चतुर्थोध्याय गज और ग्रह का पूर्व चरित्र तथा उनका उद्धार। श्री शुक उवाच तदा देवर्षि गंधर्वा ब्रह्मेशान पुरोगमः मुमुचुः कुसुमासारं संसंतः कर्म तद्धरेः नेदुर्दुन्दुभयो दिव्या गंधर्वा ननृतुर्जगुः ऋषयश्चारणा सिद्धा तुष्टुः पुरुषोत्तमम् यो सौ ग्राह स वै सद्यः परमाश्चर्यरूपधृत् मुक्तो देवर्षापेन हुहुर्गन्धर्वसत्तमः प्रणम्य शिरसाधीशम् उत्तम श्लोकमव्ययम् अगायत यशोधाम कृतन्य गुणसत्कथम् सोनुकम्पित ईशेन परिक्रम्य प्रणम्यतम् लोकस्य पश्यतो लोकम् सोमगान् मुक्तकिल्विषः गजेन्द्रो भगवत्स्पर्शाद् विमुक्तो ज्ञानबन्धनात् प्राप्तो भगवतो रूपम् पीतवासाश्चतुर्भुजः स वै पूर्वमभूद् राजा पाण्ड्यो द्रविणसत्तमः इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः स एकदा राधनकालयात्मवान् गृहीत मौनव्रतैश्वरम् हरिम् जटाधरस्तापस आप्लुतोच्यतम् समर्चयामास कुलाचलाश्रमः यदृच्छया तत्र महायशा मुनिः समागमक्षिष्य गणैः परिश्रितः तम् वीक्ष्य तुष्णीमकृतार्हणादिकम् रहसुपाशीनम् ऋषिश्चुकोपः तस्मा इमम् शापमदादसाधु अयम् दुरात्मा कृतबुद्धिरद्य विप्रावमन्ता विशताम् तमन्धम् यथा गजः स्तब्धमतिः स एव। श्रीशुक उवाच एवम् शप्त्वा गतो गस्त्यो भगवान् नृपसानुगः इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टम् तदुपधारयन् अपन्नः कौन्दरीम् जोनिम् आत्मस्मृतिविनाशिनीम् हर्यर्चनानुभावेन जद्गजत्वेऽप्यनुस्मृतिः एवम् विमुक्ष्य गदजुत्थपमब्जनाभस्तेनापि पार्षद्गतिम् गमितेन युक्तः गन्धर्वसिद्धविबुधैरुपगीयमान कर्माद्भुतम् स्वभवनम् गरुणासनोऽगात् एतन्महाराजि तवेरितो मया कृष्णानुभावो गजराजमुक्षणम् स्वर्ग्यम् यशस्यम् कलिकल्मषापहम् दुःस्वप्ननाशम् कुर्वर्जशृणताम् यथानुकीर्तयन्ति तच्छ्रेयस्कामाद्विजातयः शुचयः प्रातरुत्थाय दुःस्वप्नादुपशान्तये इदमाह हरिः प्रीतो गजेन्द्रम् कुरुसत्तमाम् शृण्वताम् सर्वभूतानाम् सर्वभूतमयो विभुः। श्री भगवान उवाच ये माम् त्वाम् च शरश्चेदम् गिरिकन्दरकाननम् वेत्रकीचकवेणूनाम् गुल्मानि सुरपादपान् शृङ्गाणि मानधिष्ण्यानि ब्रह्मणो मे शिवस्य च क्षिरोदम् मे प्रियम् धाम श्वेतद्वीपम् च भास्वरम् श्रीवत्सम् कौस्तुभम् मालाम् गदाम् कौमोदकीम् मम सुदर्शनम् पाञ्चजन्यम् सुपर्णम् पतगेश्वरम् शेषम् च मत्कलाम् सूक्ष्माम् श्रियम् देवीम् मदाश्रयाम् ब्रह्माणम् नारदम् ऋषिम् भवम् प्रह्लादमेव च मत्स्यकूर्मबराहाद्यै अवतारैः कृतानि मे कर्माणनन्तपुण्यानि सूर्यम् सोमम् हुताशनम् प्रणवम् सत्यमव्यक्तम् गोविप्राम् धर्ममव्ययम् दाक्षायणीर्धर्मपत्निः सोमकश्यपयोरपि गङ्गाम् सरस्वतीम् नन्दाम् कालिन्दीम् सितवारणम् ध्रुवम् ब्रह्मऋषिन् सप्त पुण्यश्लोकांश्च मानवान् उत्थाया पररात्रान्ते प्रयताः सुसमाहितः स्मरन्ति मम रूपाणि मुच्यन्ते येन सोऽखिलात् ये मां स्तवंतलेनांग प्रतिबुद्ध्य निषात्यये तेषां प्राणात्यये चाहं ददामि विमलां मतिं। श्री शुक उवाच इत्यादिश्य हृषिकेशः प्रथमाय जलजोत्तमम् हर्षयन् विबुधानीकम् आरुरोह खगाधिपम्। इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् अष्टमस्कन्धे गजेन्द्रमोक्षणम् नाम चतुर्थोऽध्यायः।